ओम नमो भगवते वासुदेवाय। अथ पञ्चदशोऽध्यायः। सूत उवाच, एवं कृष्णसखः कृष्णो भ्रात्रा राज्ञा विकल्पितः, नानाशङ्कास्पदं रूपं कृष्णविश्लेषकर्षितः, शोकेन शुष्यद्वदन हृत्सरोजो हतप्रभः, विभुं तमेवानुध्यायन्नाशक्नोत् प्रतिभाषितुम्, कृच्छ्रेण संस्तभ्य शुचः पाणिना मृज्यनेत्रयोः, परोक्षेण समुन्नद्ध प्रणय उत्कण्ठकातरः, सख्यं मैत्रीं सहृदं च सारथ्यादिषु संस्मरन्, नृपमग्रजमित्याह बाष्पगद्गदया गिरा। अर्जुन उवाच, वञ्चितोऽहं महाराज हरिणा बन्धुरूपिणा, येन मे परितं तेजो देवविस्मापनं महत्, यस्य क्षणवियोगेन लोको यप्रियदर्शनः, उक्थेन रहितो येष मृतकः प्रोच्यते यथा, यत्संश्रया द्रुपदगेहमुपागतानां राज्ञां स्वयंवरमुखे स्मरदुर्मदानां, तेजोरितं खलु मयापि हतश्च मत्स्यः सज्जीकृतेन धनुषाधिगता च कृष्णा, यत्सन्निधावहमुखाण्डवमग्नये दामिन्द्रं च सामरगणं तरसा विजित्य, लब्धा सभा मयकृताद्भुतशिल्पमाया, दिग्भ्यो हरन् नृपतयो बलिमध्वरेते, यत्तेजसा नृपशिरोङ्घ्रिमहन्मखार्थे, आर्योऽनुजस्तव गजायुतसत्त्ववीर्यः, तेनारिताः प्रमथनाथमखाय भूपायन्मोचितास्तदनयन् बलिमध्वरेते, पत्न्यास्तवाधिमखक्लृप्तमहाभिषेकश्लाघिष्टचारुकबरं कितवै सभायां, स्पृष्टं विकीर्य पदयो पतिताश्रुमुख्या, यस्तत्स्त्रियो कृतहते स विमुक्तकेशाः, योनोजुकोपवनमेत्य दुरन्तकृच्छ्रात् दुर्वाससोरिविहितादयुताग्रभुग्यः, शाकान्नशिष्टमुपयुज्य यतस्त्रिलोकीं तृप्ता ममंस्तसरिले विनिमग्नसङ्गः, यत्तेजसात भगवान् युधिशूलपाणिर्विस्मापितः स गिरिजोऽस्त्रमदान्निजं मे, अन्येऽपि चाहममुनैव कलेवरेण प्राप्तो महेन्द्रभवने महदासनार्धम्, तत्रैव मे विहरतो भुजदण्डयुग्मं गाण्डीवलक्षणमरातिवधाय देवाः, सेन्द्राश्रिता यदनुभावितमाजमीढ तेनाहमद्यमुषितः पुरुषेण भूम्ना, यद्बान्धवः कुरुबलाब्धिमनन्तपारमेको रथेन ततरेहमतार्यसत्त्वम्, प्रत्यारितं बौधनं च मया परेषां तेजास्पदं मणिमयं च हृतं शिरोभ्यः, यो भीष्मकर्णगुरुशल्यचमूष्वदभ्रराजन्यवर्यरथमण्डलमण्डितासु, अग्रेचरो मम विभो रथयूथपानामायुर्मनांसि च दृशा सह ओज आर्च्छत्, यद्दोषुमा प्रणिहितं गुरुभीष्मकर्ण नप्तृत्रिगर्तशलसैन्धवबाल्यकाद्यैः, अस्त्राण्यमोघमहिमानि निरूपितानि नोपस्पृशुर्नृहरिदासमिवासुराणि, सौत्ये वृतः कुमतिनात्मदईश्वरो मे यत्पादपद्ममभवाय भजन्ति भव्याः, मां श्रान्तवाहमरयो रथिनो भुविष्ठं न प्राहरन् यदनुभावनिरस्तचित्ताः, नर्माण्युदाररुचिरस्मितशोभितानि हे पार्थ हेऽर्जुनसखे कुरुनन्दनेति, सञ्जल्पितानि नरदेव हृदि स्पृशानि स्मर्तुर्लुठन्ति हृदयं मम माधवस्य, शय्यासनाटन विकत्थन भोजनादिष्वैक्याद्वयस्य ऋतवानिति विप्रलब्धः, सख्यो सखेव पितृवत्तन यस्य सर्वं सेहे महान्महितया कुमते रघं मे, सोऽहं नृपेन्द्ररहितः पुरुषोत्तमेन सख्या प्रियेण सुहृदा हृदयेन शून्यः, अध्वन्युरुक्रमपरिग्रहमङ्गरक्षन् गोपैरसद्भिरबलेव विनिर्जितोऽस्मि, तद्वै धनुस्तैषवः सरथो हयास्ते सोऽहं रथी नृपतयो यता नमन्ति, सर्वं क्षणेन तदभूदसदीशरिक्तं भस्मन्हुतं कुहकराद्धमिवोक्तमूष्यां, राजन्स्त्वयापि पृष्टानां सुहृदां न सुहृत्पुरे विप्रशापविमूढानां निघ्नतां मुष्टिभिर्मिथः, वारुणीं मदिरां पीत्वा मदोन्मथितचेतसाम् अजानतामिवान्योन्यं चतुः पञ्चावशेषिताः, प्रायेणैतद्भगवत ईश्वरस्य विचेष्टितं मिथो निघ्नन्ति भूतानि भावयन्ति च यन्मिथः, जलौकसां जले यद्वन्महान्तो दन्त्यणीयसः, दुर्बलान् बलिनो राजन्महान्तो बलिनो मिथः, एवं बलिष्ठैर्यदुभिर्महद्भिरितरान् विभुः, यदून् यदुभिरन्योन्यं भूभारान् संजहारः, देशकालार्थयुक्तानि हृत्तापोपशमानि च हरन्ति स्मरतश्चित्तं गोविन्दापि हितानि मे। सूत उवाच, एवं चिन्तयतो जिष्णो कृष्णपाद सरोरुहम् सौहार्देनातिगाढेन शान्तासीद् विमलामतिः। वासुदेवाङ्गेणुध्यान परिब्रह्मितरम् हसा भक्त्या निर्मथिता शेष कषायधिषणोऽर्जुनः। गीतम् भगवता ज्ञानम् यत्तत् सङ्ग्राममूर्धनि कालकर्मतमोरुद्धम् पुनरध्यगमद्विभुः। विशोको ब्रह्म सम्पत्त्या सङ्च्छिन्नद्वैतसंशयः लीनप्रकृतिनैर्गुण्यादलिङ्गत्वादसम्भवः। निशम्य भगवन्मार्गम् संस्थाम् यदुकुलस्य च स्वपथाय मतिम् चक्रे निभृतात्मा युधिष्ठिरः। तथाप्यनुसृत्य धनञ्जयोदितम् नाशम् यदूनाम् भगवद्गतिम् च ताम् एकान्तभक्त्या भगवत्यधोत्सजे निवेशितात्मोपररामसंसृतेः। यया हरद्भुवो भारम् ताम् तनुम् विजहावजः कण्टकम् कण्टकेनेव द्वयम् चापीषितुः समम्। यथा मत्स्यादिरूपाणि धत्ते जह्याद्यथा नटः भूभारक्षपितो येन जहौ तच्च कलेवरम्। यदा मुकुन्दो भगवानिमाम् महीम् जहौ स्वतन्वा श्रवणीय सत्कथः तदा हरेवा प्रतिबुद्धचेतसा मधर्महेतुः कलिरन्ववर्तत। युधिष्ठिरस्तत्परिसर्पणम् बुतः पुरे च राष्ट्रे च गृहे तथात्मनि विभाव्य लोपानृतजिम् महिंसनाद्य धर्मचक्रम् गमनाय पर्यधात्। स्वराट् पौत्रम् विनयिनमात्मनः सुसमम् गुणैः तोयनीव्याः पतिम् भूमेरभ्यसिञ्चत् गजाव्वये। मथुरायाम् तथा वज्रम् शूरसेन पतिम् ततः प्राजापत्याम् निरूप्येष्टिमग्नेन पिबदीश्वरः। विसृज्य तत्र तत्सर्वम् दुकूलवलयादिकम् निर्ममो निरहङ्कारः सञ्छिन्नाशेषबन्धनः। वाचम् जुहाव मनसि तत्प्राण इतरे च तम् नित्यावपानम् सोत्सर्गम् तम् पञ्चत्वे यजोऽहवीत्। त्रित्वे हुत्वाथ पञ्चत्वम् तच्चैकत्वे जुहोन्मुनिः सर्वमात्मन्यजुहवीत् ब्रह्मण्यात्मानमव्यये। चीरवासानिराहारो बद्धवाङ्मुक्तमूर्धजः दर्शयन्नात्मनो रूपम् जडोन्मत्तपि शाचवत् अनपेक्षमाणो निरगादशृण्वन् बधिरो यथा उदीचीम् प्रविवेशासाम् गतपूर्वाम् महात्मभिः। हृदि ब्रह्मपरम् ध्यायन्नावर्तेत यतो गतः सर्वे तमनु निर्जग्मुर्भ्रातरः कृतनिश्चयाः। कलिना धर्ममित्रेण दृष्ट्वा स्पृष्टा प्रजा भुवि ते साधुकृत सर्वार्था ज्ञात्वात्यन्तिकमात्मनः। मनसा धारयामासुर्वैकुण्ठचरणाम्बुजम् तद्ध्यानोद्रिक्तया भक्त्या विशुद्धतिष्णाः परे तस्मिन्नारायणपदे एकान्तमतयो गतिम् अवापुर्दुर्वापाम् ते असद्भिर्विषयात्मभिः। विधूतकल्मषास्थाने विरजेनात्मनैव हि विदुरोऽपि परित्यज्य प्रभासे देहमात्मवान्। कृष्णावेशेन तच्चित्तः पितृभिः स्वक्षयम् ययौ द्रौपदी च तदाज्ञाय पतीनामनपेक्षताम् वासुदेवे भगवति एकान्तमतिरापतम्। यः श्रद्धयैतद्भगवत्प्रियाणाम् पाण्डोः सुतानामिति सम्प्रयाणम् शृणोत्यलम् स्वस्त्ययनम् पवित्रम् लब्ध्वा हरौ भक्तिमुपैति सिद्धिम्। ओम् स्वस्ति श्रीमद्भागवते महापुराणे पारमहंस्याम् संहितायाम् प्रथमस्कन्धे पाण्डवस्वर्गारोहणम् नाम पञ्चदशोऽध्यायः। श्रीकृष्णार्पणमस्तु। नमोऽस्तु ते महायोगिन् प्रपन्नमनुषाधिमाम् यथा त्वच्चरणाम्भोजे रतिः स्यादनपायिनी।